नमस्सर्वेभ्यः अद्य कृदन्तवर्गे षोडशः पाठः जुलै मासस्य ऊनत्रिंशः दिनाङ्कः अद्य वयं त्रिच् प्रत्ययस्य रूपाणि त्रिषु लिङ्गेषु कथं भवन्ति सर्वासु विभक्तिषु प्रयोगः कथं क्रियते त्रिच् प्रत्ययान्तेन सह कर्मपदस्य प्रयोगः कथं क्रियते इत्यादि ज्ञात्वा कांश्चन विशेषांशानपि जानीमः योऽन्तः प्रविश्य ममवाचमिमां प्रसुप्तां सञ्जीवयत्यखिलशक्तिधरस्वधाम्ना अन्यांश्च हस्तचरणश्रवणत्वदादीन् प्राणान्नमो भगवते पुरुषाय तुभ्यम् गुरुरेव गतिर्गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे न गुरोः परमं शिशुरस्मि गुरोर्मतिरस्ति गुरौ मम पाहि गुरो गतवर्गे त्रिच् इति प्रत्ययस्य परिचयं प्राप्तवन्तः त्रिच् प्रत्यये त्रि इति रूपे श्रूयते अयं कर्त्रर्थकः प्रत्ययः क्रियायाः कर्तारं बोधयति यथा भोक्ता यः भोजनं करोति भुङ्क्ते सः भोक्ता पठिता यः पठति सः पठिता इत्येवं कर्तारं बोधयति अयं प्रत्ययः सर्वेभ्यः धातुभ्यः अयं प्रत्ययः भवति सामान्यः प्रत्ययः भिन्नेभ्यः धातुभ्यः त्रिच् प्रत्यये तृत्प्रत्ययस्य योजनं कथं भवति इत्यपि दृष्टवन्तः तुमुन् तव्य त्रिच् त्रयाणामपि रूपाणि समानरीत्या निष्पाद्यन्ते सो द डिरैवेशन् आफ् द फार्म्स् आफ् आल् दीस् त्री प्रत्ययस् तुमुन् तव्य एण्ड् त्रिच् फ्रम् द धातु दट् इस् एडिङ्ग् द प्रत्यय टु द धातु इस् द सेम् देर् इस् अब्सोल्यूट्लि नो डिफरेन्स् बिकास् द लेटर् तकार एट् द बिगिनिङ्ग् इस् द सेम् therefore there is no difference okay tatra roopa siddhau pradhanataya smartavya amshaha idagamah kesham dhatunam it bhavati kesham na bhavati set dhatunam idagamah bhavati anit dhatunam na bhavati vet dhatunam vikalpena bhavati gunah igantanam dhatunam gunah bhavati इकारान्तानाम् उकारान्तानाम् ऋकारान्तानाम् च गुणः इकारस्य एकारः ची चेता नी नेता इत्येवम् उकारान्तानामपि गुणः भवति श्रु श्रोता स्तु स्तोता इत्यादि ऋकारान्तानाम् कृ कर्ता कृ तत्रापि गुणे कर् सेट् धातुः अतः करिता इति ऋकारान्तानां ऋकारान्तानां सर्वेषामपि गुणः भवति एवमेव लघु इगुपधानाम् उपधा द पेनल्टिमेट् लेटर् द लेटर् बिफोर् द लास्ट् तत्र लघुः इकारः उकारो वा अस्ति चेत् तस्यापि गुणेन एकारः ओकारः एवं ऋकारस्य अर् इत्येवं गुणः भवति हल् सन्धिः हलादिः अयं प्रत्ययः तकारः धातुः अपि यत्र हलन्तः धातुः भवति तत्र उभयोः व्यञ्जनयोः मध्ये सन्धिः भवति विशिष्टाः भिन्नाः सन्धयः सन्ति तेषां विषये अपि किञ्चित् ज्ञातवन्तः एवमिदानीं तृच्प्रत्ययान्तस्य रूपं कथं भवति इति ज्ञातम् तृच्प्रत्ययान्तं तु प्रातिपदिकं भवति तस्य प्रातिपदिकस्य रूपाणि कथम् इति अद्य जानीमः ततः पूर्वम् एकं सुभाषितं पठामः शतेषु जायते शूरः सहस्रेषु च पण्डितः वक्ता दशसहस्रेषु दाता भवति वा न वा शतेषु जायते शूरः Shateshu, among hundreds. So if there are hundreds of people, ekaha shuraha bhavati. So one among them will be brave and courageous. So among hundreds of people, there could be one who is very valorous. Sahasreshucha panditaha. Sahasrashaha janaha santi chet, tesham madhye kashchit panditaha, vidvan bhavitum arhati. Vakta dasha sahasreshu. So, 10,000. So, among, if there are tens of thousands of people, kashchid ekaha vakta, vagmi, an orator, someone who can speak really well, who can convey his thoughts well, data bhavati vanava. But even among that many people, it is not sure if there will be a data, somebody who can give without expectation. So, shuratvam, the bravery or courage, is a rare quality. It is not found in everybody. Shateshu jayate. Scholarship, it requires so much more of effort also, along with an inborn, intention or the talent for learning. It also requires effort. So, that is even rarer. Vakta dasha sahasreshu. So, vaktrutvam, the ability to speak well, to convey, is even rare. Datrutvam, bahu viralenaiva bhavati. So, the ability to give to others, to overcome selfishness and to help others, itopi atyantam viralataya bhavativa nava. Ityukte dasha sahasreshu api kadachit bhavet, kadachit na bhavet. So, it's an even rarer quality. Shateshu jayate shuraha, sahasreshu cha panditaha, vakta dasha sahasreshu, data bhavativa nava. Atra kashchit prashnaha asti. Rupasya vishaye dirgha rikaranta dhatunam rupadvayam bhavativa. Tatra itaha kadachit dirghaha vikalpena bhavati. Karita karita, tarita tarita ityevam rupadvayam bhavati. Vridhatorapi rupadvayam bhavati. Varita varita iti. Graha iti dhatoho nityam itaha dirghaha grahita. Yatha tumun tavya ityatra drishtavantaha tathaiva idagamasya dirghaha vikalpena bhavati rikarantanam dhatunam. Idanim ekam abhyasam kurmaha atta kechana dhatavaha santi tesham trijanta rupani vaktavyani ayam visheshaha pratyekam gane ye dhatavaha santi te samanarthakaha. Samskritasya shabda sampattihi atyantam samriddha. Ekasya eva vastunaha athava ekasya eva kriyayaha bodhanartham bahuni padani santi. So, there are, many of the common words, they have several synonyms. Okay. So, this has nothing to do with the trith itself. So, it is just an additional thing to know how many dhatus that there are to convey the same action. Some of the common actions. Okay. Ye vaktum icchanti kripaya hastam uttolayantu. The class is sleeping today. I can see only one person has raised his hand. Nanda Kumar, Mahalaya.
Suprabhatam, namaste.
Namaste. Gacchati.
Prajanta. Ganta.
Ganta. Samik.
Yata.
Yata. Ya dhatuhu. Yata.
Vrajata.
Vrajita. Set dhatuhu. Vrajita.
Vrajati, Vrajita. सरिता
अनिट् धातुः सृ धातुः अनिट्
सरता
सर्ता कृ कर्ता एवं सृ सर्ता एति एता इन् धातुः एता सम्यक् सो एते सर्वे धातवः गत्यर्थकाः गच्छति इत्यर्थे एव याति व्रजति सरति इति इतोपि बहवः सन्ति गत्यर्थकाः धातवः एव धातुपाठे अत्यन्तं प्रभूताः दृश्यन्ते सो द गत्यर्थक धातुस् आर् एक्स्ट्रीम्ली कामन् इन् द धातुपाठ एण्ड् इवन् अमङ्ग् देम् देर् आर् डिफरेण्ट् कैण्ड्स् ऐ मीन् sometimes when the dhatupatha just says gatau but it would be a different kind of movement say dhavati so dhavu gati shuddhyoho it says gatau but we know that it's not used for as a synonym of gachati there is something say fast movement is implied so there are dhatus which have special kinds of movement like to creep along or to hop shashagatau it means to hop plutagatau so there sometimes it is mentioned sometimes it is not but you know both the synonyms of gati going and special kinds of gati so they are the most common dhatus in the dhatupatha okay. yes nandakumar mohana prashna hastyo
is it true that for the dhatus panini has not given meaning he has just listed the roots only someone else gave later the meanings
Yes, that is almost accepted. Yes, Panini probably. I mean, it's an accepted fact that he did not give the meanings. So the meanings were given later by whom we still don't know. I mean, there are several opinions on who added the meanings to the dhatu patha. So
Upramaditya or something like that.
Some say Bhima Sena, some say. I mean, there are so many things. So we never know because it's never this one. And the meanings of the dhatus given in the dhatupatha are also only indicative. They are not like only this. So, a dhatu can be used in a very wide range of meanings. So, the indicative meanings are given in the dhatupatha. Yes?
That is surprising, isn't it? To just guess the meaning of list of dhatus by Bhimasena or
I mean, it's not guessing. It's like what it has been used. I mean, even if Panini had given, that is what he would have given. What are the senses in which it has been used? Because our grammar is like always based on prayoga. So based on prayoga, what are the senses in which they have been used? So I mean, since it was a language which was in use at that time, you would know what it means. The person who is there. So
for the contemporary usage.
Yes. It will be based on usage only. And that is why for today for us, the meanings of many of the dhatus are not clear because we don't find evidence of them in literature. We depend purely on literature. So if it is not used in literature, then it's difficult for us to know how to use it. So,
thank you.
Yeah.
Okay.
Astu, agrimam kurmaha. Shri Lakshmi, you have to unmute yourself. Na shruyate. Are you speaking? Cannot hear you. Okay, maybe we'll try somebody else. Sharada, imagine.
Khadita.
Khadati, khadita. Ashnati, ashudhatu. Set.
Ashnita.
Nashrut. Ashita. अश इत्येव धातुः अशीता निजन्तः
भक्षयिता
सम्यक् भक्षयिता भोक्ता सम्यक् अद् धातु अत्ता सम्यक् सम्यक् खादिता अशिता भक्षयिता भोक्ता अत्ता सो ऑल दिस खादति इत्यस्य समानार्थकः खादति अश्नाति अश्नाति इति क्रीणाति इति वत् रूपाणि भवन्ति अश्नाति अश्नीतः अश्नुवन्ति एंड भक्षयति निजन्तः भक्षयति भक्षयतः भक्षयन्ति भुङ्क्ते भुञ्जाते भुञ्जते अत्ति अत्तः अदन्ति सो सर्वे धातवः भिन्नेषु गणेषु सन्ति सो आल् दीस् बिलोङ्ग् टु डिफरेण्ट् गणास् सो विल् हाव् डिफरेण्ट् कैण्ड्स् आफ् फार्म्स् अन्ये अपि धातवः सन्ति खादनार्थकाः सो अग्रिमम् महादेवन् महोदय
नमस्ते एकः प्रश्नः अस्ति बिकास् दिस् सृजन्तरूपाणि देर् आल् नामपदास् कर्तारं बोधयति इत्यनेन दस् अमरकोश कवर् आल्सो नाम
नो नो ऐ मीन् फार् सम् आफ् द स्पेसिफिक् थिङ्ग्स् सी अमरकोश कवर्स् those which have the the pure what to say, it does not cover the dhatu part of it. I mean, if you are deriving amara, does not cover such a purely yogika words. I mean, these are all these common kridantas, all the general kridantas are purely yogika. The meaning there is basically the meaning of the dhatu, and you have the pratyaya which is of the same sense. Okay, so Amarakosha does not cover those, but there are, I mean, for those interested, there are koshas which cover, such paryaya kriya padas. Okay, so I don't know directly now. There are some smaller works which try to collect together kriya padas or dhatus which have similar meanings. Okay.
So, vadati vaksta
vadati. वद् धातुः
ओ वदिता
वदिता सम्यक्
वक्ति इस् वक्ता
वक्ति इस् वक्ता यस्
कथयति क्षुरादि
आम्
कथयिता
कथयिता
ब्रवीति ऐ थिंक दिस् इस् स्पेशल्
यस् ब्रवीति इस् आल्सो वक्ता
ब्रूता इस्
नो नो इट् इस् वक्ता सो देर् इस् वन् या आई टेल् यू लेट्स् फिनिश् दिस् हा
भाषते धातु इस् भाष भाषिता
भाषिता सम्यक् भाषिता सो वदति वक्ति कथयति ब्रवीति भाषते इति सर्वे समानार्थकाः सो ऐ ब्रॉट दिस् ब्रवीति स्पेसिफिकलि टु मेन्शन् वन् थिङ्ग् विच् वी हेव् नाट् डन् सो फार् द धातु इस् ब्रू व्यक्तायां वाचि जस्ट् वन् मोमेण्ट् ऐ विल् बि बेक् सो ब्रवीति इत्यस्य तिङन्तरूपाणि भवन्ति ब्रवीति ब्रूतः ब्रुवन्ति इत्यादि किन्तु अयं विशेषः इन् मोस्ट् आफ् द कृदन्तस् इट् इस् वेर् संथिङ्ग् वट् वि काल्ड् अर्धधातुक अर्धधातुकेषु ब्रू इति धातोः वच् इति आदेशः भवति सो द धातु ब्रू इस् रीप्लेस्ड् बै वच् सो फार् आल् द कृदन्त कृत् प्रत्ययस् दट् वी हेव् सीन् सो फार् फार् मोस्ट् आफ् द कृत् प्रत्ययस् एक्सेप्ट् शत्रु एण्ड् शानच् द फार्म्स् आफ् ब्रवीति ब्रू धातु विल् बी द सेम् एस् वच् वचनं वाचकः वक्ता वक्तुम् इत्येव भवति सो ब्रवीति डस् नाट् हाव् फार्म्स् इट् इस् एस् गुड् एस् सेयिङ्ग् दट् ब्रवीति डस् नाट् हाव् फार्म्स् आफ् आल् दीस् कृत् प्रत्ययान्तस् बिकास् इट् इस् रीप्लेस्ड् बै वच् वच धातोः यद्रूपं तदेव रूपं भवति सो द ल्युट् फार्म् आफ् ब्रू इस् वचनम् एण्ड् देर् इस् नथिङ्ग् लैक् ब्रवणम् आर् वट् एवर् द नार्मल् फार्म्स् ओके सो वचनीयं विल् बि अनियर् नुल् विल् बि वाचकः वक्तुं वक्तव्यं वक्ता इत्येवं ब्रू धातोः वच् इति आदेशः भवति इति एकः अंशः सो वद धातुः वच धातुः भिन्नौ इति अपरः अंशः पूर्वमपि दृष्टं सो वद धातुः सेट् वच् धातुः अनिट् सो अत्र अन्यः एकः प्रश्नः अस्ति भक्षयति इत्यत्र भुज् इत्येव खलु धातुः णिजन्तेन अन्यः धातुः उत्पाद्यते वा इति न भज धातुः भुज धातुः भिन्नः भक्ष धातुः भिन्नः ओके सो दे आर् टु सेपरेट् धातुस् सो बै णिजन्त यु विल् नाट् ऐ मीन् यु विल् हेव् अ डिफरेण्ट् धातु फ्रम् णिजन्त बट् इन् दिस् केस् इट् इस् नाट् द णिजन्त आफ् भुज् भुङ्क्ते भोजयति द णिजन्त आफ् भुज् इस् भोजयति सो अतः भिन्नौ धातु अण्ड् देन् हरीश् महोदयः वदति आख्यातचन्द्रिका दट् वास् द बुक् दट् इस् द टेक्स्ट् विच् वन् आफ् द टेक्स्ट् विच् लिस्ट्स् द पर्याय धातूस् दट् इस् इट् ट्रैस् टु ब्रिङ्ग् टुगेदर् धातूस् विच् हाव् सिमिलर् मीनिङ्ग्स् ओके इट्स् इन् द फार्म् आफ् अगेन् कारिकास् लैक् अमर So it is in a form of karikas, but it will give you the all dhatus. Very useful for those who want to write. Okay, so you can't keep, I mean, using the same dhatu and again will become repetitive. So you can use different this ones. Okay. So, anyaha prashnaha astyatra. Do we have a list of ardhadhatukas anywhere? Ardhadhatukas are pratyayas, they are defined. Okay, so the thing shit sarvadhatukam. The thing pratyayas and any pratyaya which has shakara as it is sarvadhatuka. Anything else is ardhadhatuka. Okay, so we don't need a list for the sarvadhatuka and ardhadhatuka. Aparaha ekaha, a related question which is important. Like brew, are there other dhatus where a totally different word replaces the original word? Yes, there are. There are, say for example, aster bhuhu. Okay. So for asudhatu, if you look at all these ones, you will not have the kridanta form. Say, asudhatoho lyudantam bhavati bhavanam. So, bhavanam, bhavita, bhavaniyam, ityeva. So, there are some dhatus. So, you have aster bhuhu, bruvo vachihi. So, these two are the ones which are not, generally they have a replacement in all over a wide range. In particular lakaras, there are a few replacements which are seen in the same thing. Okay. So these are two common dhatus, but as and bru. Repeat the name of the book. The name of the book is Akhyata Chandrika of Bharatamalla, if I remember right. The book is called Akhyata Chandrika. One of those. So there are a few others. Let's see. So we will move along. Agrimam, the next set. So Maithili.
Namaste. Rakshita.
Rakshati, Rakshita.
Palayati. Palayita.
Palayita.
Ati Pata. Gopayati Gopayita.
Gopayita. Gupta, Gopita ityapi asti. So that's a special dhatu.
Avati, Avita.
Avita, samyak. Okay. So all these rakshanarthakaha dhatavaha. So rakshita, palayita, pata, pati, pa iti dhatu. Gopayati. So gopayati is a special dhatu. The original dhatu is actually gupu. Gupu rakshane iti dhatu. So it gets a special pratyaya called aya, and then you have it optionally. So you have gopayita, gopta, gopita ityapi rupam asti. Saha vet dhatuhu. So avati ityasya avita iti rupam. Okay. So dani agre gachhamaha. Trijantaha sarvepi shabdaha rukarantaha bhavanti. Tru. So, pathu itru pathitru kru tru kartru ityevam rikarantaha shabdaha rikarantaha pullingaha kartru shabdaha karta kartarau kartaraha he kartaha he kartarau he kartaraha kartaram kartarau kartrun kartra kartrubhyam kartrubhihi kartre kartrubhyam kartrubhyah kartuhu kartrubhyam kartrubhyah kartuhu kartroho kartrinam kartari kartroho kartrushu ityevam rupani bhavanti yatha dhatri shabdah shabdamanjari adishu dhatri shabdah prayena diyate sopi trijantah eva. Okay, so this is the kind. So there are two kinds of rukaranta. One is the pita pitri shabdah, which is not trijanta. So pitru is an anishpanna pada or an unadi. So there you have pita, pitarau, pitaraha. Okay. So there is no dirgha. Pitaram, pitarau. So anyani sarvani rupani samana ritya bhavanti. All other forms will be same, except that the pitru shabda will not have the dirgha in these four forms. So pitarau, pitaraha, pitaram, pitarau. Evam bhrataru, bhrataraha, bhrataram, bhrataru. Okay. So that is one kind of rakaranta. All trijantas will follow this pattern where there is a dirgha. Karta, kartaru, kartaraha. Dhata, dhataru, dhataraha. Bhokta, bhoktaru, bhoktaraha. Evam rupani bhavanti. Okay. So this is a special shabd. I mean, the prathama vibhakti. Sulabhatara. So using it in other this ones will require some practice. Okay. It's not very difficult. Gunanam va vishalanam satkaranam se nityashah kartaras sulabha loke vijnatarastu durlabhaha. Iti subhashita. So as you can see that all the many of the subhashitas that we have seen for this rich, they all go by the similar way, as in identifying the rarer qualities. So what is the point? It is to make sure that we pay attention to them and develop those qualities. Gunanam va vishalanam satkaranam cha nityashah kartaraha sulabha loke vijnatarastu durlabhaha. Vishalanam gunanam. So those which are very, you know, wide-hearted or deeds. Okay? Even though gunamaha ityasya quality ityarthaha. Kintu tena kartaraha ityasti. Ataha sadgunaihi yuktaha kartaraha satkaranam. Satkaraha danam atithyam ityadi. So hospitality, doing good deeds. So all these kartaraha sulabhaha loke. So those who do are easy to find. Vijnatarastu durlabhaha. But those who can recognize such good acts, they are even rarer. Okay, so there may be people who are doing good deeds. To recognize them, to know that it is something special to do a good deed, vijnataraha, so kartaraha, so kartru, karta, kartaro, kartaraha, vijnata, vijnataro, vijnataraha, vijnataraha tu durlabhaha. Those who know it, those who can recognize it are rare. Gunanamva vishalanam satkaranam cha nityashaha kartaraha sulabhaha loke vijnatarastu durlabhaha. Evam, a very similar this one. Hema dhenu dharadinam dataraha sulabhaha bhuvi durlabha purusho loke yaha pranishu abhaya pradaha. Hema dhenu dharadinam dataraha. So dataraha, where you have to just give something. Hema is kanakam, suvarnam, gold. Dhenuhu, cow. Dhara is land. Etadrishanam dataraha sulabhaha bhuvi. So you'll find many people who can just give away. To just give away something which is yours is easy. Durlabhaha purusho loke yaha pranishu abhayapradaha. But those who can give abhaya to beings, that is to ensure their protection. It is not something as simple as, you know, giving something away and then forgetting about it. You have to be constantly alert and you have to take care of something, somebody else. Pranishu abhaya pradaha. He who can give abhaya, the assurance of protection, who can give protection to somebody else, to protect, to commit to the protection of others, is rare. So you should know that, I mean, these are not contradictory. Say, one Subhashita says, Data Bhavati Vanava, and then now it says, Data Raha Sulabhaha Bhuvi. It's not a contradiction. It's like, what is the point of view from which the Subhashita looks, and what is the focus of the Subhashita? Okay. So, durlabhaha purusho loke yaha pranishu abhaya pradaha. He who can grant abhaya to pranis, he is very rare. So in this context, the famous shloka from the Ramayana, where that is what Rama is famous for. Sakradeva prapannaya savasmiti chayachate abhayam sarvabhutebhyaha dadamyeta drutam mama. So sakradeva prapannaya ekavaram sharanam agachati chet. You don't have to do repeatedly ask. It's just one request. Tavasmiti cha yachate. Saying, okay, I belong to you, so you have to take care of me. Sakrudeva prapannaya tavasmiti cha yachate abhayam sarvabhutebhyaha dadami. So I will protect him from all beings, that is from all causes of fear. Etat vratam mama. So that is the vrata of the Bhagavan. Okay. So his this thing, which means that he has to follow it. So abhaya pradaha. So in that context, that shloka, I was reminded of it. Anyway, samuchita vachanena riktasthanam purayata atra evaktum icchanti.
Namaste. Shruyateva?
Ha. Shruyateva. Paninihi Sutra.
Paninihi?
Ha.
Sutra Karta.
சூத்திரகர்த்தா. பாணினி சூத்திரகர்த்தா. வார்த்திக கர்த்தா.
பதஞ்சலி பாஷ்யகர்த்தா.
பாஷ்யகர்த்தா.
வாமன ஜயா ஜயாதித்யோ காஷிகா கர்த்தா கர்த்தாரோ கர்த்தாரோ
கர்த்தாரோ காஷிகா கர்த்தாரோ
கர்த்தாரோ பர்த்ருஹரி தீட்சித நாகேஷாஹ க்ரந்த கர்த்தாரஹ
கர்த்தாரஹ சம்யக் க்ரந்த கர்த்தாரஹ கர்த்தா கர்த்தாரோ கர்த்தாரஹ வியாக்கரணஸ்ய ஏதே சர்வே சாஸ்திரகர்த்தாரஹ பாணினி சூத்திரகர்த்தா சூத்ராணாம் கர்த்தா சர்த்தஹ வரருச்சிஹி வார்த்திக கர்த்தா பதஞ்சலிஹி பாஷ்யகர்த்தா ஃபார் தோஸ் ஹூ டு நாட் நோ பாணினி வரருச்சி அண்ட் பதஞ்சலி ஆர் த த்ரீ சேஜஸ் ஹூ ஆர் த பேஸ் ஆஃப் சம்ஸ்கிருத வியாக்கரணம் பாணினினா அஷ்டாத்யாயி ரச்சிதா அஷ்டாத்யாயாம் சூத்ராணி சந்தி வரருச்சி வார்த்திகானி ரச்சிதவான் சோ வார்த்திகாஸ் ஆர் லைக் அடிஷன்ஸ் டு சூத்ர அடிஷனல் ரூல்ஸ் தே ஆர் ஆல்சோ லைக் சூத்ரஸ் தட் இஸ் இன் த ஃபார்ம் ஆஃப் சிங்கிள் சென்டென்சஸ் சோ விச் வில் ஆட் சம்டைம்ஸ் ஆட் டு த சூத்ரா ஆர் சம்டைம்ஸ் மாடிஃபை அ சூத்ர அண்ட் தென் பதஞ்சலி ரோட் அ டெக்ஸ்ட் கால்டு த மகாபாஷ்யம் So, Mahabhashyam is a commentary on both the sutras and the Vartikas. Okay? So, the Mahabhashya is one of the most profound texts in the literature of any language. Okay? It's an extremely, deep text which goes in so many directions. So, Mahabhashyam va pathaniyam, Maharajyam va shasaniyam, iti uktihi. So, the effort required to study the Mahabhashya is equivalent to that of ruling an entire country. So, Bhashyakarta, Patanjalihi. So, Sutrakaraha, Vartikakaraha, Bhashyakaraha, they are our, the base, the foundation of Vyakarana Shastra of this one. Okay. So, Munitrayam, Ityavuchyate, Trimuni Vyakaranam, Paniniyam. So, these three are the basic. So, Kashika iti anyaha granthaha asti. Ashtadhyayaha vyakhya. So, Kashika is one of the earliest texts which gives, as you know, the sutra. Panini's Ashtadhyayi has only sutras. Okay, it only gives the rules. No examples, no explanation, nothing other than the sutras. So, this is a vritti grantha which gives you what is the meaning of the sutra, what are the examples of the sutra. Okay, in the same order as the Ashtadhyayi. So, Kashika is one of the very, very important texts in grammar. Okay, even though the study of Kashika is not very common today due to various circumstances, but it is a very, very valuable text. And it was composed by two people, Vamana and Jayaditya. Okay, ataha Vamana Jayadityau Kashika Kartarau iti dvivachanam. பர்த்ருஹரிஹி தீக்ஷிதஹ நாகேஷஹ சர்வேபி வையாகரணாஹ பர்த்ருஹரிஹி வாக்யபதீயம் இதி க்ரந்தம் ரசிதவான் தீக்ஷிதஹ பட்டோஜி தீக்ஷிதஹ சித்தாந்த கௌமுதி ஒன் ஆஃப் த மோஸ்ட் பாப்புலர் டெக்ஸ்ட் ஆஃப் கிராமர் டுடே அண்ட் நாகேஷ பட்டஹ சோ ஹி ஹாஸ் ரிட்டன் ப்ரொஃப்யூஸ்லி சோ லகுஷப்தேந்துசேகரஹ பரிபாஷேந்துசேகரஹ மஞ்சூஷா இத்தேவம் பஹவஹ ப்ரௌடக்ரந்தாஹ நாகேஷேன ரசிதாஹ ஏதே சர்வேபி க்ரந்த கர்த்தாரஹ சாஸ்திர கர்த்தாரஹ இத்யாதி ஓகே சோ கர்த்தா கர்த்தாரௌ கர்த்தாரஹ இதானீம் கேசன சந்தி தான் சமூகத்தை நிர்தேஷ்டும் ஏகம் த்ரிதந்த ரூபம் வக்தவ்யம் ஸ்ரீராம் மகோதய
நமஸ்தே Gandhi, Subhashaha, Tilakaha, Bhimaravaha. Kim Karaniyam Bhagini?
Ekam Trijantaru, Kamete Sarveke. Kim
Kratava? Gandhi Neta?
Satyam. Tasya? Bahuvachanam.
Neta Raha.
Neta Raha. So, Ete Sarvepi Neta Raha. Rashtram Netum Nayanti Athavani Tavantaha Taha Neta Raha.
Sachin Pile
Federer.
Federer. Bold Krida Kridita 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 Raha
Samyak Kridita Raha. So Kridanti Asyataha Kridita Raha.
Amitabha, Rajinikantaha, Rajkumaraha, Natitaraha.
Natitaraha, Samyak. Aditya.
Venamaha. Bala Murli Krishnaha, Bhimasena Joshi, Kishore Kumaraha. Gayati Gayitara
Anitta Dhatu Gataraha Samyak Gai Dhatu Gata Iti Bhavati Gataraha
Ravindranath Kalki Krishnamurti Lekhitaraha
Lekhitaraha Samyak
Vikrama Bhatra Yogendra Simhanaraha Samyakta Sharma Vidvamsa
No, they were all soldiers. Yudh, yudh, dhatoho.
Yodhitara.
Anitta. Yodha. Yodhara. Yodha, yodharau, yodhara. Devam. Dhanyadaha. So just a comment, I mean, it's a reflection on my own, it's not on anybody else, but I wanted to give the example of Yodharaha. I mean, the examples for all the other things were very easy, even on my mind. But for Yodharaha, I realized that I didn't know such famous names. Even now, these names are not famous. They are the ones who have fought for us, who have done so much for us. But how many names do we actually know? It's a thing, I mean, I have been reflecting on it since yesterday when I was looking at. I had to Google up to find out names of soldiers who have, all of them are those who died fighting for India. Okay. So, when we, all the other names above, okay, I mean, we know them. Everybody knows them. And those who died for us, unfortunately, we don't know. It's probably more in our country. In other countries, probably, they have a better idea of their war heroes. But the knowledge is, I think, very minimal in our country, unfortunately. Something we need to think and maybe think for our children also. What are we teaching them? So, Yodharaha, coming back to ప్రస్తుతం అనుసరామః నేతారః క్రీడితారః నటితారః గాతారః లేఖితారః యోద్ధారః ఓకే సో బహువచనే త్రిదంతస్య ప్రయోగః అన్యాసు విభక్తిషు సర్వాసు విభక్తిషు అపి ప్రయోగః కర్తుం శక్యతే సో అన్యాసు విభక్తిషు ప్రయోగః సరళః అన్లైక్ ద కర్మణి ప్రయోగ లైక్ సే అనియర్ ఆర్ తవ్య కర్తర్థక ప్రత్యయానాం సర్వాసు విభక్తిషు ప్రయోగ సరళ బికాస్ వి జస్ట్ యూస్ దెమ్ యాజ్ వి వుడ్ యూజ్ అ కర్తృపద లైక్ యూ వుడ్ యూజ్ సే బాల ఆర్ రామ ఇన్ డిఫరెంట్ విభక్తి ఏమేవ అస్యాపి భిన్నాసు విభక్తిషు ప్రయోగ కర్తుం శక్యతే కానిచన ఉదాహరణాన్ని పశ్యామః య ఏనం వేత్తి హంతారం యశ్చైనం మన్యతే హతం ఉభౌ తౌ న విజానీతః నాయం హంతిన హన్యతే ఇది భగవద్గీతాయాః శ్లోకః ఏనం నామ ఆత్మానం హంతారం వేత్తి హీ హూ నోస్ ద ఆత్మా టు బి ఎ హంత దట్ ఈస్ ద వన్ హూ కిల్స్ యశ్చైనం మన్యతే హతం ఆర్ ద వన్ హూ ఇస్ కిల్డ్ హంత హతః హంత యః హననం కరోతి సః హంత యస్తు హతః సో హంత ఇతి కర్తృర్థకః ప్రత్యయః హతం ఇతి అగ్రే పశ్యామః క్త ప్రత్యయః కర్మార్థకః ఇట్ షోస్ ద ఆబ్జెక్ట్ ఆఫ్ కిలింగ్ సో హీ హూ థింక్స్ ద ఆత్మా టు బి ఎ కిల్లర్ ఆర్ హీ హూ థింక్స్ హిమ్ టు బి కిల్డ్ ఉభౌ తౌ న విజానీతః సో బోత్ ఆఫ్ దెమ్ డు నాట్ నో ద ట్రూత్ నాయం హంతి న హన్యతే నీదర్ విల్ ద ఆత్మా కిల్ నార్ విల్ ఇట్ బి కిల్డ్ ఇతి సో హంతారం హంతారం వేత్తి నోస్ హిమ్ టు బి అ కిల్లర్ ఇత్యర్థః హంతృ ఇతి త్రిజంతస్య ద్వితీయ విభక్తి ఓకే అన్యః శ్లోకః అర్వాచీనః బై సమ్ మోడర్న్ పోయెట్ సో ఇట్స్ జస్ట్ హ్యూమరస్ శ్లోక స్రష్ట్రా రేఖాంకనాభ్యాసః పురా యదా చికీర్షితః ఆదౌ జీవ్రః కృతః పశ్చాత్ ధనురైంద్రం కృతం ముదా స్రష్ట్రా స్రష్ట్ర యః సృజతి సః స్రష్టా తస్య తృతీయా విభక్తిః స్రష్ట్రా బై ద క్రియేటర్ చికీర్షితః వెన్ ఇట్ వాస్ డిజైర్డ్ టు రేఖాంకనాభ్యాసః టు ప్రాక్టీస్ రైటింగ్ లైన్స్ ఓకే So first he created the zebra. So the zebra is directly taken from English. Zebra ityasya chitrarasabhaha ityuchyate samskrute. Atra tu casually zebra ityeva svikritam. So first he created the zebra, that is by drawing the black and white lines. Paschat dhanuraindram kritam muda. Aindram dhanuhu. Indra dhanuhu is the rainbow. Okay. So it is always called as the Indradhanuhu Indrachapaha ityachyate paschat dhanuraindram kritam muda and then he tried his hand with colors so and created the rainbow tatha so srashtra iti srashtra tridantasya tritiya vibhaktau rupam namah pranava rupaya vishvakartre namo namaha tatha vishvasya rakshitre నమోస్తు పరమాత్మనే సో ప్రణవ రూపాయ ప్రణవ ఓంకారః సో ప్రణవ రూపాయ సో హీ హూ ఇస్ ఇన్ ద ఫార్మ్ ఆఫ్ ద ఓంకార విశ్వకర్త్రే విశ్వస్య కర్త ద క్రియేటర్ ఆఫ్ ద వరల్డ్ తథా విశ్వస్య రక్షిత్రే హీ హూ ప్రొటెక్ట్స్ ద వరల్డ్ నమోస్తు పరమాత్మనే సో అగ్రిమ శ్లోకే విశ్వస్య హంత్రే ఇత్యపి అస్తి ఆల్సో హీ హూ డిస్ట్రాయ్స్ So he is responsible for creating, maintaining and destroying the world. So kartre, rakshitre, hantre. So kartre, rakshitre, hantre iti trijanta shabdaha tesham chaturthi vibhaktihi namas shabda yogena. So yatra yatra namas shabdaha prayujyate tatra chaturthi vibhaktihi jani maha. So vishvakartre, rakshitre iti. చతుర్థీ విభక్తౌ ప్రయోగః శ్రియః పత్యుః భియాం హర్తుః త్రయీ వేత్తుః హయాస్య इत्युक्ते प्रियायमे जयाय स्याद् इयं सरसभारती. सो इट इज अ डेडिकेशन एट द एंड ऑफ टेक्स्ट. श्रियः पत्युः हयास्य इति संबोधनम्, हयवदन संबोधनम् टु हयग्रीव. सो हे हयवदन, श्रियः पत्युः ते टु यू फॉर यू हु आर श्रियः पतिः, सो द लॉर्ड ऑफ लक्ष्मी. भियाम हर्तुः द रिमूवर ऑफ फियर्स. भियः हरति, हि हु टेक्स अवे द फियर्स. त्रयी वेत्तुः, त्रयीं वेत्ति, त्रयी नाम वेदाः इत्यर्थः. सो वेदानां ज्ञाता, हि हु नोस द वेदस. सो तादृशस्य तव प्रियाय स्यात् इयं सरसभारती. These words that is at the end of a text, let this text te priyaya syat, so let it be for your delight. Me jayaya syat, and let it be for my victory. So this text which I have composed, may it please you and may it bring me victory ityarthah. So bhiyam hartuh trayi vettuh iti shashti vibhakti. So shriyah patyuh bhiyam hartuh trayi vettuh. सो हर्तृ इत्यस्य षष्ठी विभक्तौ हर्तुः, वेत्र वेत्ति इति धातुः, विद् धातुः, वेत्र इति त्रिदन्तः, तस्य षष्ठी विभक्तिः हर्तुः वेत्तुः इति. नियन्तरि निषिद्धस्य सर्वेषां हितकर्तरि योनुरागो भक्तिरत्र सा परा परमात्मनि. So, nishiddhasya niyantari, he who prevents, niyanta, niyanta is restricts or prevents, nishiddha, that which should not be done. Sarvesham hitakartari, so and he who acts beneficially for everybody. So, tasmin yaha anuragaha, so the feeling of love or affection towards him. Nishiddhasya niyantari. सर्वेषां हितकर्तरी यः अनुरागः भक्तिः, सो दट इज कॉल्ड भक्ति. भक्ति और डिवोशन इज नथिंग बट अनुराग टुवर्ड्स ही हु इज द प्रिवेंटर ऑफ दट विच शुड नॉट बी डन एंड ही हु एक्ट्स सो दट इट इज बेनिफिशियल टू एवरीबडी. सा परा परमात्मनि, सो परमात्मनि इत्यपि सप्तमी. सो दट इज कॉल्ड द best kind of bhakti. Yonurago bhakti ratra sapara paramatmani. So niyantari, niyanta. So niyanta niyamo yamaha. Iti Vishnu Sahasranama Sotrepi asti niyanta iti bhagavataha nama. So niyantru iti trijantasya saptami vibhakti. Hitakartari, hitam karoti, hitakarta, hitakartru shabdasya saptami vibhakti. सो एवं सर्वासु विभक्तिषु प्रयोगः कर्तुं शक्यते. सो इदानीं वाक्यानि रचनीयानि भिन्नासु विभक्तिषु एतत् पदम् उपयुज्य. सो टु यूज दिस वर्ड इन डिफरेंट विभक्तिस टु क्रिएट सेंटेंसेस. से फॉर एग्जांपल यू हैव द फर्स्ट वन, सो आई शुड हैव गिवन द प्रातिपदिक. एनीवे गिरिजा महोदय, गिरिजा भगिनी,
गांधी महोदय,
नो नेता इति शब्दमेव उपयुक्तम् बिकॉज इट इज द त्रिजन्त. आई वांट दिस
नेता. शुड इट कंस्ट्रक्ट अ सेंटेंस?
या, हियर इट इज वेरी इजी. सो नेता वेदिकाम् आगच्छति. नेता वेदिकाम् आगच्छति. सो द लीडर कम्स् टु द स्टेज. ओके,
जनाः नेतारं प्रश्नान् पृच्छन्ति.
सम्यक्, जनाः नेतारं प्रश्नान् पृच्छन्ति. सो पीपल् आस्क् हिम् क्वेश्चन्स्.
नेत्रे
నేత్రా ప్రశ్నానాం జనానాం జనాః ఏ ప్రశ్నాన్ పృష్టవంతః తేషాం ఉత్తరాణి అయం దదాతి ఇత్యర్థః కర్మణి ప్రయోగః అతః తృతీయా విభక్తిః నేత్రా ప్రశ్నానాం ఉత్తరాణి దీయంతే.
నేత్రే అభిమానినః పుష్పమాలాం సమర్పయంతి.
సమ్యక్. నేత్రే అభిమానినః పుష్పమాలాం సమర్పయంతి. ధన్యవాదాః. థాంక్ యూ. పద్మనాభన్ అయ్యర్ మహోదయ
నమస్తే. నేతు సాహాయం ప్రాప్నువంతి కేచన.
నేతు సాహాయం ప్రాప్నువంతి. సో అత్ర షష్ఠీ అపి భవితుమర్హతి, పంచమీ అపి. సో ఇఫ్ దే ఆర్ గెటింగ్ ఫ్రమ్ ద లీడర్ పంచమీ, నేతు ప్రాప్నువంతి. హిస్ హెల్ప్ ఇత్యర్థే షష్ఠీ అపి భవితుమర్హతి. రూపమపి సమానం. సో యూ విల్ నాట్ నో, కింటు పంచమీ వివక్షయా మయా దత్తం. ఔచ్.
నేతు దర్శనార్థం బహవః ఆగచ్చంతి.
సమ్యక్. నేతు దర్శనార్థం బహవః ఆగచ్చంతి. సో మెనీ పీపుల్ కమ్ ఫార్ అ సైట్ ఆఫ్ ద నేత. సో నేతు దర్శనార్థం.
నేతరి జనానాం విశ్వాసో విశ్వాసో అస్తి.
నేతరి జనానాం విశ్వాసః అస్తి. So people have trust in the leader.
Hey Netar.
Hey Netar.
Desham. Hey Netar. Desham Sushtu Palaya.
Hey Netar. Desham Sushtu Palaya. So O leader. So it's an addressing. Sambodhana Prathama. Desham Sushtu Palaya. Take care of the country well. So, you have all the different vibhaktis which can be used with the Trijanta. Neta, Netaram, Netra, Netre, Netuhu, Netuhu, Netari, He Netaha. Okay. So, Asmin Abhyase, Bahuvachana Rupaihi Riktasthanam Puraniyam, Bhinnasu Vibhaktishu Bahuvachanam Asti. అత్ర ప్రాతిపదికం దీయతే తస్య సముచిత విభక్తి రూపం అన్వేష్టవ్యం. సో ఎనీబడి హూ వుడ్ లైక్ టు ఆన్సర్? హావ్ నాట్ ట్రైడ్ సో ఫార్. సో వై ఇస్ దేర్ సో లెస్ రెస్పాన్స్ టుడే? రాజలక్ష్మి మోహన్. వక్తృన్ ప్రోత్సాహయితుం. సో టు ఎంకరేజ్ ద స్పీకర్స్. సో శ్రోతారః వక్తృన్ ప్రోత్సాహయితుం కరతాడనం కుర్వంతి. సో లిజనర్స్ క్లాప్ టు ఎంకరేజ్ ద స్పీకర్స్. విజేతృభ్యః పుస్తకాన్ వితరతి. సో ద చీఫ్ గెస్ట్ డిస్ట్రిబ్యూట్స్ ప్రైజెస్ టు ద విన్నర్స్. ఓకే. अध्येतृभिः सह आगच्छति गुरुः अध्येतृभिः सह आगच्छति सो द टीचर कम्स अलोंग विद द स्टूडेंट्स धन्यवादाः
एकः प्रश्नः अपि
पृच्छतु
लुप्तकार रकारस्य प्रथमपुरुषरूपाणि तथा तृदन्त प्रथमाविभक्ति रूपाणि समाना अस्ति खलु
आम् समानानि भवन्ति यतोहि तत्र तास् इति लुट्लकारस्य विकरणप्रत्ययः सो सिन्स् यु हाव् द ता एण्ड् यु हाव् द डा रौरस् इति आदेशः सो द प्रथमाविभक्ति फार्म्स् आफ् द त्रिजन्त एण्ड् द प्रथमपुरुष फार्म्स् आफ् लुट्लकार आर् द सेम् से भविता भवितारौ भवितारः इति लुट्लकारस्य रूपमपि भवति त्रिजन्तस्य रूपमपि भवति सो प्रसङ्गवशात् ज्ञातव्यम् सो अदर् पुरुषस् यु केन् नो से भवितासि भवितास्थः भवितास्थ भवितास्मि भवितास्वः भवितास्मः इति तिङन्तस्य प्रयोगः सो इन् दिस् इट् इस् द सेम् सो just to clarify her question, there is a lakara called lut lakara which is used in the bhavishyat kale lut iti lakara samanyatah lrut lakara asmabhi prayujyate karishyati bhavishyati ityadi lut ityapi lakara asti so there is also a lakara called lut which is used for bhavishyat kala so tatra rupani trijantena समानानि भवन्ति सो द फार्म्स् आफ् लुट् लकार आफ् धातुस् इन् द प्रथमपुरुष सो द फस्ट् त्री वचनास् आफ् प्रथमपुरुष विल् बी द सेम् एस् ऐ सेड् भविता भवितारौ भवितारः सो भविष्यति इत्यर्थे भविता इति भवति सो श्वः कार्यक्रमः भविता इति तिङन्तत्वेनापि प्रयोगः कर्तुं शक्यते सो त्रिजन्ते अपि प्रथमाविभक्तेः रूपं समानं भवति सो हियर् आल्सो यु हाव् भविता भवितारौ भवितारः एण्ड् देर् आल्सो यु हाव् भविता भवितारौ भवितारः द अदर् फार्म्स् विल् आफ् कोर्स् डिफर् अग्रे गच्छामः ज्योत्स्ना
चोरयितृभ्यः न बिभीम
वयं चोरयितृभ्यः सो भी धातोः प्रयोगे पञ्चमी विभक्तिः भवति सो चोरयितृभ्यः न बिभीमः सो वी विल् नाट् फियर् द थीव्स् चोरयिता इति चोरयितृभ्यः न बिभीमः
अयं नर्तकः दृष्टॄणां प्रियः
द्रष्टॄणां प्रियः सो हि इस् डियर् टु द व्यूवर्स् दट् इस् हि इस् वेरि पापुलर् इत्यर्थः द्रष्टॄणां प्रियः
छात्राणां बोधयितारः बोधयितृषु श्रद्धा भवेत्
छात्राणां बोधयितृषु श्रद्धा भवेत् सो स्टूडेण्ट् शुड् हाव् फेत् इन् द टीचर्स् श्रद्धा इन् द टीचर्स् बोधयितृषु श्रद्धा भवेत् सम्यक् धन्यवादाः सो एतत् सर्वमपि एतावत् पर्यन्तं पुल्लिङ्गस्य रूपाणि दृष्टानि तृच् प्रत्ययान्तः स्त्रीलिङ्गरूपाणि कथं भवन्ति स्त्रीलिङ्गे तृच् अन्तानां ई इति प्रत्ययः वस्तुतः नीप् इति प्रत्ययः तत्र ईकारः शिष्यते तस्य योजनं भवति अतः कर्तृ ई इत्यस्ति तत्र यण् सन्धिः भवति यण् सन्धौ रेफादेशः कर्त्री एवं पठितृ ई पठित्री वक्तृ ई वक्त्री इति ईकारान्त स्त्रीलिङ्गरूपं निष्पद्यते सो ईकारान्त स्त्रीलिङ्गशब्दवत् यथा नदी शब्दः तद्वत् रूपाणि भवन्ति सो द फार्म्स् आर् लैक् अन् ईकारान्त स्त्रीलिङ्गशब्द सो एकं श्लोकं पश्यामः कर्त्री लोकस्य लीला विलसित विधिना कारयित्री क्रियाणां भर्त्री स्वानुप्रवेशाद्वियदनिलमुखैः पञ्चभूतैः स्वसृष्टैः हर्त्री स्वेनैव धाम्ना पुनरपि विलये कालरूपं दधाना हन्यादामूलमस्मत्कलुषभरमुमा भुक्तिमुक्तिप्रदात्री सो उमा शतकमिति किञ्चित् स्तोत्रमस्ति ततः स्वीकृतम् उमा इति पार्वत्याः भगवत्याः देव्याः विषये उच्यते कीदृशी लोकस्य कर्त्री सो द क्रियेटर् आफ् द वर्ल्ड् लीला विलसित विधिना बै हर् लीला ओके बै हर् प्लेफुल् एक्ट्स् लोकस्य कर्त्री क्रियाणां कारयित्री सो शी हु मेक्स् एव्रिबडी एल्स् एक्ट् सो शी क्रियेट्स् द वर्ल्ड् शी मेक्स् एव्रिबडी एक्ट् भर्त्री स्वानुप्रवेशात् वियद् अनिलमुखैः पञ्चभूतैः स्वसृष्टैः भर्त्री द बेरर् सो शी होल्ड्स् टुगेदर् और् शी बेर्स् द क्रियेशन् थ्रू द पञ्चभूतास् वियद् अनिलमुखैः वियत् आकाशः अनिल वायुः सो यु हाव् पृथिवी आकाश पृथिवी अप् तेजो वायु आकाश द पञ्चभूतास् सो थ्रू द पञ्चभूतास् शी होल्ड्स् और् शी बेर्स् द वर्ल्ड् सो स्वसृष्टैः पञ्चभूतैः बै द पञ्चभूतास् विच् वेर् क्रियेटेड् बै हर्सेल्फ् आकाश वायु एक्सेट्रा स्वानुप्रवेशात् सो बै एण्टरिङ्ग् देम् और् बै मर्जिङ्ग् वित् देम् शी होल्ड्स् टुगेदर् द वर्ल्ड् हर्त्री स्वेनैव धाम्ना हर्त्री एण्ड् शी विल् डिस्ट्राय् द वर्ल्ड् पुनरपि विलये विलय प्रलय इत्यर्थः सो प्रलयकाले स्वयं हरति नाशयति कालरूपं दधान बै टेकिङ्ग् द फार्म् आफ् काल सो कर्त्री कारयित्री भर्त्री हर्त्री भुक्तिमुक्तिप्रदात्री सो प्रदात्री शी हु ग्राण्ट् भुक्ति एण्ड् मुक्ति भुक्ति एञ्जाय्मेण्ट् आफ् प्लेजर्स् इन् दिस् वर्ल्ड् मुक्ति इस् रिलीस् फ्रम् द वर्ल्ड् सो भुक्तिमुक्तिप्रदात्री का उमा पार्वती आमूलम् अस्मत् कलुषभरम् हन्यात् आमूलम् सो फ्रम् इट्स् रूट्स् कलुषभरम् अवर् सिन्स् अवर् पापस् और् अवर् दोषस् हन्यात् लेटर् डेस्ट्राय् सो लेटर् डेस्ट्राय् आल् आर् evil deeds or the fruits of our evil deeds or our papas. So, Uma ityasya visheshanatvena sarvesham trijantanam prayogaha strilinge kartri, karayitri, bhartri, hartri, pradatri. Atra प्रातिपदिकं दीयते अस्य पुल्लिङ्गरूपं तथा स्त्रीलिङ्गरूपं वक्तव्यम् राव् महोदय
गुड् मार्निङ्ग् श्रूयते वा
श्रूयते सो द फस्ट् कालम्
धातृ धात्री
दा वाट् इस् द पुल्लिङ्ग फार्म् प्रथमा विभक्तिः
धात्री
पुल्लिङ्गे
पुल्लिङ्गे ओके धातृः
दाता
दाता
धात्री
यु वाण्ट् बोत् पुल्लिङ्गं
पुल्लिङ्गं स्त्रीलिङ्गं च
ऐ एम् सारी जेता जेत्री
जेता जेत्री
Srota, Srotri. Bhokta, Bhoktri. Harta, Hartri. Srashta, Srashtri.
Srashta, Srashtri. Dhanyavada. Swaminathan, Mahoday.
Patita, Patitri.
Patita, Patitri.
Patita, Patitri. Rakshita, Rakshitri.
Rakshita, Rakshitri.
Yachita, Yachitri.
Yachita, Yachitri.
Katayita, Katayitri.
Palayita,
Palayitri.
Palayita, Palayitri. Okay, nice. So, pullinge, strilinge, rupani, bhavanti. So, ikarantaha, strilingaha, dhatri, shabdaha. Dhatri, dhatriyau, dhatriyaha. He dhatri, he dhatriyau, he dhatriyaha. Dhatrim, dhatriyau, dhatrihi. Dhatriya, dhatribhyam, dhatribhihi. Dhatriyai, dhatribhyam, dhatribhyaha. Dhatriyaha, dhatribhyam, dhatribhyaha. Dhatriyaha, dhatriyohu, dhatrinam, dhatriyam, dhatriyohu, dhatrishu. Nadi shabdavadeva rupani. Okay, so no difference. So, anyasu vibhaktishu prayogasya kanichana udaharanani pashyamaha. So, dhatrim, sthatrim, janitrim, prakritim, avikritim, vishvashaktim, vidhatrim, Vishnor Vishwasmanastam Vipula Gunamayim Prananatham Pranaumi. So, Vishnoho Prananatham. So, Vishnoho Jayam Lakshmim Pranaumi Ityarthaha. So, Vipula Gunamayim. She who is possessed of many virtues, gunas. Vishwasmanaha Vishnoho Prananatham Vipula Gunamayim Pranaumi, Namaskaromi, Ityarthaha, Tatra, Chatvari Visheshanani Santi, Dhatrim, Sthatrim, Janitrim, Vidhatrim. So, Dhadhatuhu, Dhatri. So, Dharana Poshanayoho, Ityarthaha. So, Sthatri. So, she is, who is permanent, she who stays. Sthadhatuhu, Janitrim. So, she who is the mother, prakritim, avikritim, vishvashaktim, vidhatrim. So, vidhatri iti bhagavatyaha, vidhatri vedajanani iti lalita sahasranama stotre pyasti. So, she who creates everything ityarthaha. So, atra sarvatra dvitiya vibhakti, pranaumi, prananatham ityasya visheshanam, ataha dvitiya vibhakti. Saundarya Laharyam Apyasti Savitri Bhirvacham Shashimani Shilabhang Ruchibhihi Vashinyadya Bhistvam Saha Janani Sanchintayati Yaha. So Saha Ityasti Vashinyadya Bhihi Saha Tvam Yaha Sanchintayati. He who meditates upon you along with the other Shaktis called Vashini etc. And what kind of those? Vacham Savitri Bhihi. So they who produce Chui Dhatuho Savitri Prani Garbha Vimochane. So it is to generate speech. Okay, so Vashini etc. They are the Shaktis which generate speech. So Vacham Savitri Bhihi Vashinyadya Bhihi Saha. So Tritiya Vibhakti Asti. Okay, so Agre Sakarta Kavyanam. So, he will become a great poet. Ityarthe prayogaha asti. So, he, janani, O mother, that is addressing the goddess. Svam yaha sanchintayati, he who meditates upon you, along with these siddhis such as Vashini, which are vacham savitri bhihi. So, which are the generators of speech. Saha karta kavyanam. So he becomes a great poet. Iti agre saundarya lahariyah shlokah. Atra savitri bhihi iti tritiya vibhaktau prayogah. Pranaumi ityatra kaha dhatuhu nu stutau iti dhatuhu. Naumi nauti nutaha nuvanti naushi nutaha nutha naumi. So nu stutau iti dhatuhu. So daraha srashtuhu mudakartri shantida sukha samprada dasoham asmi dhatriyaha sa sarvadavatu sharada. So dātriyāha dāsaha aham asmi. So I am the servant of the dātri, she who grants or she who gives everything. Okay. Kīdrishī sa srashtuhu dāraha, the wife of the creator. So srashtuhu ityapi trijantam. So it is pullinge shashti vibhakti. Dāraha srashtuhu. So the wife of the creator, that is Brahmā. Okay. So daraha, dara shabdasya vishaye janiyahu, nitya bahuvachanam. Patni ityarthaha, kintu pullinga shabdaha, nitya bahuvachanam. So the word dara is a pullinga word to indicate a wife, and it is always used in bahuvachanam. So wife, I mean, there are words in all three genders to indicate wife. Okay. So daraha iti pullinge. So, strilinge bahuni shabda, bahuni padani santi, kalatram iti napumsakalinge apyasti. Okay. So, samskrite, the linga vyavastha depends on the word and not on the meaning. So, srashtuhu daraha, brahmanaha patni, mudakartri, she who mudam karoti, mudayaha kartri, she who creates happiness, shantida, she who gives peace, sukha samprada, she who gives all the pleasures. So dātriyaha, so such a dātri, so who is in who is a giver, tasyaha dāsaha ahamasmi, sa sharada, so such sharada sarvada avatu shlokaha. So srashtuhu iti pullinge trijantasya shashti vibhakti, dātriyaha iti strilinge. Okay. Evam sarvasu vibhaktishu prayogaha kartum shakyate. So ekaha abhyasaha. Sudha bhagini. I think you have muted yourself. You have to unmute. Sudha Bhagini, Sudha Raghunaman, you have to unmute yourself. Click on the microphone.
Vijetri Spardhayam Jayam Prapnoti.
Vijetri Spardhayam Jayam Prapnoti. It's a redundancy. So the winner wins in the competition.
Prekshakaha Vijetrim Abhinandanti.
Prekshakaha Vijetrim Abhinandanti. Say they congratulate the winner.
Vijetriya Paritoshikam Prapyate.
Vijetriya Paritoshikam Prapyate. So the prize is got by her.
Vijetriyai protsahanam prayachanti.
So Vijetriyai, so they grant a scholarship or money to the Vijetri. Vijetriyai protsahanam prayachanti. Dhanyavadaha. Venkateshwaran, you have to unmute yourself. So Vijetriyaha Hastankanam. So again, so they want to take autograph from the winner.
विजेत्रियः चित्रं पत्रिकासु प्रकाशयन्ति.
So they publish her photos in the papers. So her photos, विजेत्रियः चित्रं.
विजेत्रियाम् आनन्दः उल्लसति.
विजेत्रियाम् आनन्दः उल्लसति. So happiness erupts in her.
विजेत्रियाम् अभिवर्धस्व.
सम्बोधनम्.
हे विजेत्री. हे विजेत्री अभिवर्धस्व.
हे विजेत्री अभिवर्धस्व. सो यू प्रॉस्पर और ग्रो वेल. धन्यवादः. सो विजेत्री, विजेत्रीम, विजेत्र्या, विजेत्र्यै, विजेत्र्याः, विजेत्र्याः, विजेत्र्याम, विजेत्री इति सर्वासु विभक्तिषु प्रयोगः कर्तुं शक्यते. नपुंसकलिङ्गे अपि प्रयोगः शक्यते एव. ऋकारान्तः नपुंसकलिङ्गः भोक्तृशब्दः. सो भोक्तृ भोक्तृणी भोक्तॄणि. हे भोक्तृ हे भोक्तृणी हे भोक्तॄणि. भोक्तृ भोक्तृणी भोक्तॄणि. सो प्रथमाविभक्तौ द्वितीया विभक्तौ भेदः. सो ऑल द रेस्ट विल बी द सेम एज पुल्लिंग. यथा पुल्लिंगे रूपं तथैव रूपं भवति. प्रथमा द्वितीया विभक्त्योरेव भेदः. ओके. सो यू हैव भोक्तृ भोक्तृणी भोक्तॄणि इति रूपं भवति. सो भगवद्गीतायां प्रयोगः द्रष्टुं शक्यते. सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च. तत्रैव अविभक्तं च भूतेषु विभक्तमिव च स्थितं भूतभर्तृ च तज्ञेयं ग्रसिष्णु प्रभविष्णु च. सो त्रयोदशे अध्याये क्षेत्रक्षेत्रज्ञविभागयोगे. सो ब्रह्मणः विषये उच्यते. सो द लॉर्ड इस् टाकिंग् अबौट् द ब्रह्मन् द परब्रह्म विच् इस् नपुंसकलिङ्ग. ओके. सो अतः तत् कीदृशम् इति वर्ण्यते. एस् यु केन् सी सर्वं नपुंसकलिङ्गे अस्ति. सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् इत्यादि. सो गुणभोक्तृ भूतभर्तृ. गुणभोक्तृ सो दट् विच् एन्जाय्स् द गुणास् गुणानां भोक्तृ. भूतभर्तृ एण्ड् दट् विच् बेर्स् और् होल्ड्स् आल् द भूतास् आल् द लैफ्स् भूतभर्तृ च तत् ज्ञेयम्. सो तत् भूतभर्तृ गुणभोक्तृ इति नपुंसकलिङ्गे प्रयोगः. So I'm not attempting to explain the whole shloka, both for the want of time and of course it's a description of the Brahman, so it will take some this. So my intent is only to point out that there are two words in Napumsakalinga, Trijantasya Prayogaha, Gunabhoktru Bhutabhartru iti. Okay. So the last point in Trijantas, Trijanta Prayoge, कर्मपदं षष्ठी विभक्तौ भवति. यथा नुल् प्रत्यये तथा अत्रापि समासप्रयोगः कर्तुं शक्यते अथवा षष्ठी विभक्तौ प्रयोगः क्रियते. फलानि भुङ्क्ते फलानां भोक्ता. फलस्य इत्यस्ति बहुवचने फलानां भोक्ता. धर्मं वक्ति धर्मस्य वक्ता. सङ्गीतं शृणोति सङ्गीतस्य श्रोता. लेखनीं क्रीणाति लेखन्याः क्रेता. मातरं नमति मातुः नन्ता. सो तिङन्तप्रयोगे द्वितीया विभक्तिः, त्रिजन्तप्रयोगे षष्ठी विभक्तिः. ओके. सो उदाहरणानि, एक्चुअलि इफ् यु गो बैक् टु आल् द एक्साम्पल्स् वी हव् सीन्, so in many of these cases you will see the shashti vibhakti. So punaha bhagavad gita yaha shlokah etanme samshayam krishna chettum arhasya sheshatah tvadanya samshayasyasya chetta nahyupapadyate. So etanme samshayam krishna chettum arhasi. So please remove or cut apart my doubt. Okay. Samshayam chettum arhasi Svadanyah asya samshayasya cheta. So he who can cut this doubt or clear this doubt, Svadanyah nahi upapadyate. There is nobody other than you who can clear this doubt. So samshayasya cheta. So he who cuts the doubt. So samshayah karma shashti vibhaktau vidyate. So Ramayane api shlokah asti Ramasya vishaye rakshita jiva lokasya dharmasya parirakshita rakshita swasya dharmasya swajanasya cha rakshita. So everywhere you can see the shashti jiva lokasya rakshita jiva lokam rakshati ityarthah dharmasya parirakshita dharmam parirakshati swasya dharmasya rakshita swam dharmam rakshati. So you have to go into vyakyanas to know why the double. One is dharmasya and the other is swasya dharmasya. So swajanasya cha rakshita swajanam rakshati. So sarvatra api karma padam shashti vibhaktau bhavati. So antimaha abhyasaha. So tinganta rupam diyate trijantam nuvulantam cha upayujya. So remember nuvul and trich are samanarthakas, synonyms. You can use both in the same sense. Ubhayatrapi karma padam shashti vibhaktau bhavati. So ubhayam upayujya vakyam prachaniyam. So those who want to volunteer, anybody who has not answered so far today, no? Nandakumar, Mahodaya.
Hameva.
Bhavaneva. Anye vaktum na vivakshanti. Vaktaraha durlabhaha. Vakta dashatrahatreshu. Padatun.
Gramasya neta, gramasya naita.
Nul. Aka. Gramasya neta nayakah.
Okay.
Gramasya nayakah.
Devasya vandita.
Bahuvachanam. Devan vandate.
Devanam. Devanam vandayita.
Vandita.
Devanam vandayita. Vandakah.
Vandakah. Devanam vandita. Devanam vandakah.
Satrunam harakah. Anakah.
No. Then trich shatrunam
hantaita.
Hanta. Shatrunam hanta. Nul is a special form. Ghatakah. Shatrunam ghatakah. So shatrunam hanta, shatrunam ghatakah.
Ghatakah is commonly used only. Yes. But in the context in...
Yeah, I mean it is difficult to relate it to han. Okay. So the derivation is not obvious. Ghatakah. Dhanyavadah. Girija. Imagine.
Namaskar.
Ha.
Katayaha lekhita. Abharanani choriti. Abharananam chorita. Abharananam. Chorakah.
Chorayita, chorakah. सम्यक् दोग्धि
दोग्धि
दोग्धा
दोग्धा दा इत्यस्य षष्ठी विभक्ति
गवाम गवाम
गवाम दोग्धा
गवाम दोग्धा
गवाम दो दो दोहतः दोहतः
सम्यक् गवाम दोहतः धन्यवाद गवाम दोग्धा गवाम दोहकः एवं तृच् प्रत्ययान्तस्य रूपाणि दृष्टानि कथं धातुभ्यः तृच् प्रत्ययस्य योजनं क्रियते इति त्रिषु लिङ्गेषु त्रिदन्तस्य रूपं कथं भवति तेषां भिन्नासु विभक्तिषु प्रयोगः कथम् इत्यपि ज्ञातवन्तः त्रिदन्तेन सह कर्मपदं षष्ठीविभक्तौ भवति इत्यपि ज्ञातम् विशेषांशाः न सन्ति वस्तुतः देर् इस् नथिङ्ग् स्पेशल् अबौट् त्रिच् ओके इट्स् अ वेरि आर्डिनरि प्रत्यय ऐ मीन् नूल् त्रिचौ सो नूल् अण्ड् त्रिच् उभौ अपि प्रत्ययौ कर्त्रर्थे सर्वेभ्यः धातुभ्यः भवन्ति सो इट्स् अ दिस् वन् सूत्राणि कानि इति पश्यामः नूल् त्रिचौ इति सूत्रं त्रिच् प्रत्ययस्य विधायकम् So that is the sutra which gives the trich pratyaya. Gunaha bhavati. So since it is a pratyaya which allows guna, so you have the sarvadhatuka ardhadhatuka yoho and puganta laghupadhasyacha. So if it is ending in ik, e ur, then we have sarvadhatuka ardhadhatuka yoho. Upadha. So if the penultimate letter is e or u or r, we have the puganta laghupadhasyacha. And इट् योग्यः प्रत्ययः अतः इडागमसम्बद्धानि सूत्राणि सो आर्धधातुकस्येड्वलादेः इति सूत्रेण इडागमः विधीयते ग्रहोलिति दीर्घः ग्रहधातोः इडागमस्य दीर्घः अतः ग्रहीता इति वृतो वा सो वृ धातोः दीर्घः वा भवति सो यः वरिता वरीता एवं ऋकारान्तानां धातूनां विकल्पेन दीर्घः तरिता तरीता करिता करीता इत्यादि ति इष सः लुभ ऋष ऋषः सो तकारादौ प्रत्यये परे एतेषां धातूनां विकल्पेन इडागमः भवति अतः एषिता एष्टा सहिता सोढा इत्यादि रूपद्वयं भवति इत्यर्थः ओके अत्र स्थगयामः प्रश्नाः सन्ति चेत् पृच्छन्तु there were some questions which I think I skipped earlier. So I'll answer them now. If you have any other questions, you can ask. So, prekshakaha iti nul va iti prashnaha. Am, prekshate iti prekshakaha. So, nulantaha. Ayam nartakaha drashtrubhyaha priyaha iti bhavati va. Sampradanasya prayogaha iti samanyataha na bhavati. प्रादेशिकभाषासु अस्ति किन्तु संस्कृते प्रियः इत्यस्य स्थाने षष्ठ्याः एव रोचते इति चेत् द्रष्टृभ्यः रोचते इति तु प्रयोगः भवति चतुर्थ्याः अन्यथा षष्ठीविभक्त्याः प्रयोगः एव युज्यते ओके जीब्रः इति सुभाषिते अस्ति संस्कृतशब्दः वा इति न तत्तु मया तदापि उक्तं सो हास्यपूर्णः श्लोकः एवमेव प्रयोगः कृतः सो इट्स् नाट् अ संस्कृत वर्ड् संस्कृते चित्ररासभः इत्युच्यते लिखितं सो देर् आर् सच् प्रयोगस् दीस् डेस् अण्ड् देर् आर् क्वैट् अ लाट् आफ् डिबेट्स् अबौट् सच् प्रयोगस् आल्सो सो not acceptable. I mean, directly taking a word and just adding a vibhakti, so is not acceptable. It's just a casual usage. Okay. Matri shabdaha trijantaha va iti prashnaha na. So, matri is also like pitru. Mata, matarau, mataraha. Iti. सो मातृ इति त्रिजन्तः शब्दः अपि अस्ति. माति मा माने टु मेजर इत्यर्थे मातृ इति भवति. तदा माता मातारौ मातारः हि हु मेजर्स इत्यर्थे भवति. किन्तु जननी इत्यर्थे यः मातृशब्दः सः त्रिजन्तः न. सो एकः प्रश्नः तत्र अभयं सर्वभूतेभ्यः इत्यत्र भूतेभ्यः इति संप्रदानं वा अपादानं वा इति. अपादानमेव, यतोहि सकृदेव प्रपन्नाय तवास्मीति च याचते सर्वभूतेभ्यः अभयं ददामि इत्यस्ति. सो दट् इस् संप्रदान. यः सकृदेव प्रपन्नः यः तवास्मीति याचते. सो तत्र याचते इति शत्रु प्रत्ययस्य चतुर्थी विभक्तिः. सो तस्मै सर्वभूतेभ्यः अभयं ददामि. सर्वभूतेभ्यः इति अपादानम्. So how many dhatus are there in total? There are around 2000 dhatus. Just a moment. So if you have any other questions, please raise your hands. Yes, Mahadevan Mohane.
Taksh dhatu ke ek prashna. Taksh was said that the simul has two forms, takshitum, tashtumiti. When it comes to which, do you have two forms or is it only takshita?
Both forms, tashta. Tashta, takshita.
So, tashta.
Tashta, takshita. Okay, so there are one more, this one. Malakaraha, one creates a mala, yes. Malakaraha ityasti, so that's a different krit pratyaya. The pratyaya is called ann. Okay, malam karoti. So you can say malakarta. Malakaraha ityapi bhavati. So bhinnaha pratyaya. Okay. So it is a kridanta which is called upapada kridanta. So we will come to those at the end of this course. We will do that not in detail, but yes, we will do some of those. Yes, this the and definitely we will learn it. So one more question. Can these 2000 dhatus be added to the spreadsheet? Well, not to this one. I mean, the purpose of this spreadsheet was to collect the dhatus which are popular and commonly used. So we have around 400. I think people are finding it very difficult to maintain this itself. And it's not, see, even though there are 2000 dhatus, the ones which are commonly used are only around 800 dhatus, even in literature. Okay. So we don't have to actually learn all the 2000 dhatus. And what we have is a representative collection of those which are most useful in ordinary vyavahara. Okay. So you can see the Dhatu Patha, or if you go to the Tinganta Prakriya course, you will find a spreadsheet which will have all the Dhatus. So for this course, we are not dealing with all of them. So another question related to the Malakara, is it also Upapada Samasa? Yes, all Upapada Kridantas also compulsorily undergo the Upapada Samasa. So it is, comes combined, the Pratyaya and the Samasa. Okay, so we will learn that as we come to that place. Okay. question in Tinganta course, I'm unable to find the spreadsheet. It is in the first lesson of the course. The first lesson of the course is something like useful documents for the course or something. So that one has the spreadsheet and that has all the dhatus. Okay. So if you're just try it, if you're unable to find it, send me an email. I'll send it. Okay. So. Any other question? What is the question? Rakshaka about Sridhar Mahoday, you have a question?
Namaste, Mahoday. Excel sheet Madhya. Ish dhatu.
Ish dhatu ho. Ish is set. It's only when it is followed. We have this ti isha saha lubharusharishaha. So only when followed by a takaradi pratyaya, it gets an optional it. So it is by nature, it is set. So it's not wait. But there are two forms in the takaradi pratyaya because of this special sutra. तदेव अत्र तुम तव्य कृच्च एतेषु प्रत्ययेषु रूपद्वयं भवति सो यस फॉर ऑल दोस सह धातुः लुभ ऋष ऋषि सो फाइव धातुज इन दिस ति ईशा सह लुभ ऋष ऋषः ति नाम तकारादौ प्रत्यये परे इट विकल्पेन भवति सो It has two forms.
Dhanyavada.
Yeah. Nanda Kumar Mahoday.
In the last class, you were wondering, no, in the Excel sheet for Siddhanta, there was instructions given at the top and it has disappeared. But it actually exists as a separate sheet in the consolidated sheet, which I have 2,284 dhatus. It is a separate sheet in the correct book.
No, even in this it is there because, I mean, it happened because I had inserted a sheet in between to hide those forms. Once I removed it, now it should be visible. At least when I checked it should be visible even now. Yeah.
Okay.
Yeah. So, any other questions? What is the trich for rat dhatu hoiti prashna? Ratita? Iti bhavet. Ratita, he who repeats or tells repeatedly. There's one more general question. So the last question for the day, hopefully. A basic question, what is Churadi, Bhadi, Adadi, etc. So the 2000 dhatus in the dhatu patha are divided into 10 classes called the ganas. Okay, for the purpose of derivation. So different classes will have different kinds of forms. So the first is called Vadi because it starts with Bhu. The second class is called Adadi because it starts with Ad. Then you have the Juhotyadi starting with Hu. Divadi starting with Div. Swadi starting with Su. Tudadi starting with Tud. Rudhadi starting with Rudh. Tanadi starting with Tan. Kriyadi starting with Kri. And Churadi starting with Chur. So the Gana is just named based on the first Dhatu. So each gana will have its own forms, especially in the Latlakara and the four Sarvadhatukalakaras. So the ninth gana will be Krinati, so you have the Nati, whereas if you go to the fourth gana, you will have the Yati, Nrityati, Divyati, etc. So the gana classification it is useful for some of the forms. Whereas for some, it does not make a difference. Say, for example, for these Kridantas which we are studying, the Gana will not make a difference. For some, it will make a difference. Okay. So, I think we'll stop here. Okay. Oh, one more. Raksha Dhatuhu Rakshakaha Iti Nulantaha. There is no other form. Nuli Rakshakaha Trich Pratyaya Rakshita. Okay. So there are no other forms. Gurureva gatir gurumeva bhaje gurunaiva sahasminamo gurave na guroh paramam shishurasmi gurur matirasti gurau mamapahi guru. Dhanyavadah.